रेडियो नेपाल सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। संविधान सभायाः अध्यक्षस्य नेकपा एमाले दलस्य उपाध्यक्षस्य च सुभाषचन्द्र नेवाङ्गित्यस्य राजकीय सम्मानेन अन्त्येष्टि विधास्यते। सिंहप्रासादे ह्य उपविष्टेन मन्त्रिपरिषदः आकस्मिकोपवेशेन नेपालस्य संविधानस्य निर्माणाय लोकतान्त्रिक गणतन्त्रस्य स्थापनायै च अनेन निरूढां महत्वपूर्ण भूमिकां प्रति सम्मानम् अभिव्यज्य पूर्व सभामुखस्य नेवाङ्गित्यस्य राजकीय सम्मानेन अन्त्येष्टिं विधातुम् निर्णितमिति संचार सूचना प्रविधि मन्त्री सर्वकारस्य प्रवक्ता च रेखा शर्मा अज्ञापयत्। संविधान सभायाः अध्यक्षस्य नेकपा एमाले दलस्य उपाध्यक्षस्य च सुभाषचन्द्र नेवाङ्गित्यस्य निधनस्य शोके सर्वकारेण स्व सार्वजनिकावकाशः प्रदत्तोऽस्तीति गृहमन्त्रालयो ज्ञापयति। मन्त्रालयेन गत सायं सूचनां प्रकाश्य स्व नेपालस्य सर्वेषु सर्वकारीय कार्यालयेषु विदेशस्थितेषु नेपाली दूतावासेषु नियोगेषु च अवकाश प्रदास्यते। तत्तन्निकायानां कार्यालयेषु राष्ट्रिय ध्वज अर्धम् अवनमयिष्यते चेति ज्ञापितं वर्तते। संविधान सभायाः दिवंगतम् अध्यक्षम् पूर्वसभामुखम् च सुभाषचन्द्र नेवाङ्ग इत्यमुम् प्रति शीर्षनेतृभिः दल कार्यालयम् एत्य अन्तिम श्रद्धाञ्जलि व्यक्तो वर्तते। प्रधानमन्त्री नेकपा माओवादी केन्द्रस्य अध्यक्षश्च पुष्पकमल दाहाल प्रचण्डः संविधान सभायाः अध्यक्षाय नेवाङ्ग इत्यस्मै पुष्पगुच्छम् समर्प्य अन्तिम श्रद्धाञ्जलिम् अददात। सभामुख देवराज घिमिरे, उपसभामुख इन्दिरा राणा च दिवंगताय नेत्रे नेवाङ्ग इत्यस्मै श्रद्धाञ्जलिम् अर्पयताम्। पूर्व राष्ट्रपतिः विद्यादेवी भण्डारी, नेपाली कांग्रेस दलस्य सभापतिः पूर्व प्रधानमन्त्री च शेरबहादुर देउवा, नेकपा एकीकृत समाजवादी दलस्य अध्यक्ष पूर्व प्रधानमन्त्री च माधव कुमार नेपालः, नेपाल समाजवादी दलस्य अध्यक्ष पूर्व प्रधानमन्त्री च डाक्टर बाबुराम भट्टराई, उप प्रधानमन्त्री मन्त्रीणश्च दल कार्यालयम् गत्वा नेवाङ्ग इत्यमुम् प्रति अन्तिम श्रद्धाञ्जलिम् अर्पयन्। दलस्य केन्द्रीय कार्यालय, नेकपा दलस्य महासचिव नेत्र विक्रम चन्द विप्लव, राप्रपा दलस्य नेता पशुपति शमशेर जबरा च श्रद्धाञ्जलिम् व्यक्तवन्तौ। तत्पूर्वम् नेकपा एमाले दलस्य अध्यक्षेण केपी शर्मा ओलिना, एमाले दलस्य उपाध्यक्षस्य दिवंगतस्य नेतुः नेवाङ्ग इत्यस्य पार्थिव शरीरे दलस्य ध्वजम् आच्छाद्य श्रद्धाञ्जलिः व्यक्तः आसीत्। नेकपा एमाले दलेन उपाध्यक्षस्य सुभाष नेवाङ्ग इत्यस्य निधनं प्रति शोक प्रस्तावं पारितीकृत्य श्रद्धाञ्जलि व्यक्तो वर्तते। ललितपुरस्य च्यासलवर्तिनी दल कार्यालये पूर्वे द्युः उपविष्टेन सचिवालयस्य आकस्मिकोपवेशेन देशस्य सर्वेषु दल कार्यालयेषु दिनत्रयं यावत् दलस्य ध्वजम् अर्धम् नमयितुं निर्णितमिति नेता प्रदीप ज्ञवाली अज्ञापयत्। एवमेव सचिवालयोपवेशेन केन्द्रीय कार्यालये, प्रदेश कार्यालयेषु, इलाम कार्यालय च शोक पुस्तिकां स्थापयितुं, दलस्य औपचारिक कार्यक्रमान् दिनत्रयं यावत् स्थगयितुं, आगामिनः आश्विन मासस्य द्वितीय दिवसे स्वर्गीयस्य नेवाङ्ग इत्यस्य सम्माने विशेष श्रद्धाञ्जलि सभाम् आयोजयितुं च निर्णितमिति नेता ज्ञवाली ज्ञापितवान्। संविधान सभायाः अध्यक्षस्य नेकपा एमाले दलस्य उपाध्यक्षस्य च सुभाषचन्द्र नेवाङ्ग इत्यस्य निधनम् अनु अद्य निर्धारितः प्रतिनिधि सभायाः उपवेशः स्थगित कृतो वर्तते। संसद सचिवालयस्य महासचिवः डाक्टर भरतराज गौतमः सूचनां प्रकाश्य स्थगित कृतम् उपवेशं सभामुख नेवाङ्ग इत्यस्य निधनस्य शोक प्रस्ताव पारितीकरणस्य प्रयोजनाय स्व अष्टाविंशे दिवसे बृहस्पतिवासरे दिवा त्रिवादनाय निरधारयदिति ज्ञापयति। एवमेव गत दिवसाय निर्धारितो प्रतिनिधि सभायाः संसदीय श्रवण समितेः, प्रत्यायोजित व्यवस्थापन सर्वकारीया श्वासन समितेश्च उपवेशौ अपि स्थगितौ अभवताम्। जनता समाजवादी दल नेपालेन संविधान सभायाः अध्यक्षस्य, प्रतिनिधि सभायाः सदस्यस्य च सुभाष नेवाङ्ग इत्यस्य निधनं प्रति दुःखं व्यक्तं वर्तते। पञ्चायत व्यवस्थायाः विरुद्धस्य आन्दोलनात् ऐतिहासिक जनान्दोलनम यावत राष्ट्रविहितेषु परिवर्तनकारी संघर्षेषु अग्रणी भूमिकायाः निर्वाहकस्य स्वर्गीयस्य नेवांग इत्यस्य निधनेन राष्ट्राय अपूरणीया क्षतिः सम्भूतेति ह्य दलेन प्रकाशितायं विज्ञप्तौ उल्लिखितं वर्तते। एवमेव मधेस प्रदेश सभायाः सदस्यस्य बिन्दु यादवस्य च ह्यभूतं निधनं प्रत्यपि दलेन दुःखं व्यक्तं वर्तते। जनमत दलेन च संविधान सभाया अध्यक्षस्य नेकपा एमाले दलस्य उपाध्यक्षस्य च सुभाष नेवांग इत्यस्य निधनं प्रति दुःखं व्यक्तं वर्तते। एमाले दलस्य उपाध्यक्षस्य नेवांग इत्यस्य निधनं प्रति श्रद्धाञ्जलिम् अर्पयता जनमत दलेन शोकाकुल परिवारं प्रति गभीर समवेदना च प्रकटितेति दलस्य केन्द्रीय प्रवक्त्रा डाक्टर सरसिंह यादवेन प्रकाशितायां विज्ञप्तौ उल्लिखितं वर्तते। प्रधानमन्त्री पुष्पकमल दाहाल प्रचण्ड विदेशवर्तिनः नेपाली राजदूतान् नेपाली श्रमिकाणां हितं केन्द्रे निधाय कार्यं विधातुं निर्दिशति। श्रम प्रवासन सम्बद्ध समस्याभिः एतासां समाधानेन च सम्बद्धायां सिंह आसादवर्तिनी प्रधानमन्त्री मन्त्रिपरिषदः कार्यालये आयोजितायां दिनद्वयव्यापिन्याम् अन्तरक्रियायां प्रधानमन्त्री प्रचण्डः विदेशे स्थितैः नेपाली श्रमिकैः षोडभ्यानां समस्यानां विषये ध्यानाकर्षणं विदधानः श्रमिकाणां हितं केन्द्रे निधाय कार्यं विधातुं राजदूतान् निरदिशत्। सर्वकारेण प्रथमवारं विदेशे स्थितान् नेपाली राजदूतान् आहूय नेपाली श्रमिकैः षोडभ्यानां समस्यानां काठिन्यस्य च विषये विमृष्टमस्ति। अन्तरक्रियायां प्रधानमन्त्री प्रचण्ड राष्ट्रस्य समृद्धये श्रमक्षेत्रस्य भूमिका महत्वपूर्णा भवतीति भासमाणः आर्थिक कूटनीतिं ध्यात्वा बाह्यनिवेशनस्य अभिवृद्धये नेपाल्युत्पादनानाम् आपणीकरणाय चापि राजदूतानां भूमिका महत्वपूर्णा भवतीति प्रत्यपादयत। प्रधानमन्त्री प्रचण्ड नेपाले पर्यटनस्य प्रचुर सम्भावनायां सत्यमपि पर्याप्त लाभ ग्रहीतुं शक्तो नास्तीति चर्चयन् वैदेशिक पर्यटकानाम् आगमनं वर्धयितुमपि राजदूतानां सक्रियता आवश्यकी भवतीति प्रावोचत। परराष्ट्रमन्त्री नारायण प्रकाश साउद अमेरिका देशस्य न्यूयोर्क स्थानाय ह्यः प्रस्थितो वर्तते। संयुक्त राष्ट्रसंघीय शान्ति निर्माण आयोगेन श्व सेप्टेम्बर मासस्य चतुर्दश दिनांके न्यूयोर्क स्थाने आयोक्ष्यमाणे शान्ति निर्माणे शिक्षाया भूमिका इति विषयके विमर्शन कार्यक्रमे सहभागिताय परराष्ट्रमन्त्री साउद तत् प्रस्थितो वर्तते। नेपालः सम्प्रति संयुक्त राष्ट्रसंघीय शान्ति निर्माणायोगस्य सदस्यो वर्तते। अस्य कार्यक्रमस्य पश्चात् मन्त्री साउद प्रधानमन्त्रिणा पुष्पकमल दाहाल प्रचण्डस्य नेतृत्वे संयुक्त राष्ट्रसंघस्य अष्टासप्ततितम्यां महासभायां सहभागितायै नेपाली प्रतिनिधिमण्डले सहभागी भविष्यति। स्वास्थ्य जनसंख्या मन्त्री मोहन बहादुर बस्नेत वदति चिकित्सालयानां व्यवस्थापने विद्यमानाम् अव्यवस्थितिं निवार्य अग्रे वर्ध्यते। चितवन जनपदे ह्य पत्रकारै सह असौ चिकित्सालयानाम् अव्यवस्थितेः सुधारस्य विषये आत्मना केनापि सह संविदा न विधीयते इत्यभासत। मन्त्री बस्नेत पदसंख्याया प्रवर्धनस्य विषये अर्थमन्त्रालयाय स्वास्थ्य मन्त्रालयेन परिपत्रं प्रेषितमिति सूचयन् चिकित्सालयेषु आवश्यकानाम् उपकरणानां भौतिक संरचनानां च कृते व्ययस्य अभावे सति दातृ निकायानां सम्मेलनम् आयोज्यापि कार्याणि सम्पाद्यन्ते इति दृढताम् अभिव्यनक। उपराष्ट्रपतिः रामसाहाय प्रसाद यादवः वदति नेपालीनां भविष्यं सूचना प्रविधेः विकासेन सह योजितं वर्तते। काष्ठमण्डपे ह्य आयोजिते कार्यक्रमे उपराष्ट्रपतिः यादवः अगदत् समावेशिन्याः शिल्प प्रदानायाश्च शिक्षायाः माध्यमेन स्वदेशे एव यूनाम् आकर्षणम् आवश्यकं वर्तते। कार्यक्रमे शिक्षा विज्ञान प्रविधि राज्यमन्त्री प्रमिला कुमारी शिक्षा प्रणालीं देशे सर्वेषां जनानां समानाभिगमम् प्रापयितुं बलं प्रादात्। सीमा प्रवेश शुल्कस्य अर्पणेन विना गोप्य रूपेण आनीतस्य नवशतम् षष्ठी चेति ग्राम परिमितस्य अवैध स्वर्णस्य अधिग्रहणस्य घटनायाः अनुसन्धानस्य क्रमे प्रहरिणाय जनत्रयं निगृहीतं वर्तते इति समाचाराः।